गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणं तत्र आत्मा द्विविधा इति पूर्वम् उक्तम् आसीत् तत्र परमात्मा जीवात्मा इति तत्र प्रभेदाः सन्ति तस्य प्रभेदौ द्वौ स्तः तत्र आत्मा इति निरूपणे वयं स्मः इदानीम् एकनिमिषं तत्र अहं तत्र पुस्तकं पुस्तकात् एव इदानीं पठन्तः स्मः अतः तत्र पुस्तकमस्ति चेत् पुस्तकं पार्श्वे अस्ति चेत् समीचीनम् अतः तत्र पुस्तके वयं तत्र ईश्वरसाधकम् अनुमानम् इति पाठे स्मः अत्र स्मः इदानीं दृश्यते वा अस्तु समीचीनम् अस्तु तत्र एकनिमिषः अस्तु तत्र नूतनतया तत्र शुभ भगिनी नमस्कारः शुभदा भगिनी नमस्कारः
नमस्ते महोदय
विमला भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी आं मृणालिनी भगिनी नमस्कारः
आं प्रणाम आचार्य
नमस्कारः भगिनी अस्तु तर्हि तत्र ईश्वरः नाम तत्र परमात्मा इति ईश्वरः सर्वज्ञः इति तत्र लक्षणवाक्यम् आसीत् किन्तु तत्र किञ्चित् पुनस्मरणं भवतु इति कृत्वा तत्र एतत् पठितवन्तः किन्तु तत्र ततः एव पुनः आरम्भं कुर्मः तर्हि तर्हि तत्र योगेन्द्रमहोदय आरम्भं करोति वा महोदय तत्र ईश्वरसाधकनिरूपणं अनुमानम् इति आरभ्य
आं करोमि यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयस्पर्शः आश्रयेण विना न भवति इति तत् आश्रयत्वेन तदा आश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं तद्वत् ईश्वरानुमानाय प्रसिद्धः ज्ञायमानः न कोऽपि गुणः वर्तते यम् आदाय तद् आश्रयत्वेन ईश्वरः सिद्ध्येत् अतः अत्रत्या रीतिः अस्ति अन्या दृशी यथा आकाशनिरूपणम् आकाशस्य निरूपणं कृतवन्तः तदा शब्दात्मक यः गुणः अस्ति तस्य आश्रय विना प्रायः आकाशस्य निरूपणं कर्तुं न शक्नुमः इति वक्तुम् इच्छति
न न न तत्र तत्र आकाश आकाशस्य निरूपणं किञ्चित् स्मरामः तत्र कथम् अभवत् इति तत्र शब्दगुणकम् आकाशम् इति लक्षणवाक्यमासीत् खलु वाक्यं किम् आसीत् आकाशलक्षणवाक्यं
शब्दगुणकम् आकाशं
शब्दगुणकम् आकाशं शब्दः गुणः वा गुणः वा
आम्
आम्
शब्दः गुणः
तर्हि शब्दः गुणः तत्र इन्द्रियेण गृह्यते वा सः गुणः
केनेन्द्रियेण
केनेन्द्रियेण केन इन्द्रियेण तत्र शब्दस्य ग्रहणं भवति
कर्णाभ्यां
किन्तु कर्णः भिन्नः
तत्र इन्द्रियं साक्षात् इन्द्रियं कर्णः शरीरस्य भागः
श्रोत्रेन्द्रिय
श्रोत्रेन्द्रियं श्रोत्रेन्द्रियं किञ्चित् कर्णस्य समीपे अस्ति कर्णः तस्य आधारः किन्तु श्रोत्रेन्द्रियं भिन्नम् अस्ति श्रोत्रेन्द्रियेण वयं तत्र शब्दस्य ग्रहणं कुर्मः समीचीनम् अतः एव श्रूयमाणः अस्ति शब्दः खलु शब्दः श्रूयते श्रूयमाणः शब्द अपि शब्दः गुणः इति कृत्वा शब्दात्मकगुणः इदानीं तादृशगुणः गुण अस्ति चेत् तत्र गुणस्य गुणं तत्र कुत्र तिष्ठति गुण स्वयमेव तिष्ठति वा अथवा तस्य आश्रयः भवेत् वा
द्रव्यं भवति तस्य आश्रयः
द्रव्यं भवति खलु तर्हि तत्र तस्य आश्रयः भवेत् किन्तु शब्दस्य आश्रयः तत्र पृथ्वी भवति वा जलं भवति वा
शब्दस्य आश्रयः आकाशः भवति
तत्र आश्रयः भवेत् किन्तु तत् जलं नास्ति पृथ्वी नास्ति खलु वायुः नास्ति तेजः नास्ति इति कृत्वा अन्यत् द्रव्यं भवेत् इति कृत्वा तस् शब्दः गुणः इति कृत्वा तस्य आश्रयः द्रव्यम् अतः तत्र नूतनं द्रव्यं नाम तत्र आकाशः इति द्रव्यम् इति अस्ति इति वयं साधितवन्तः खलु अतः तत्र तस्य आश्रयत्वेन इत्युक्ते तस्य इत्युक्ते कस्य
आकाशस्य प्रायः
न आश्रयत्वेन आकाशः कल्पितः आकाशः वयं साधितवन्तः तस्य आश्रयत्वेन तत्र शब्दस्य आश्रयत्वेन शब्दस्य आश्रयत्वेन आकाशः कल्पितः इदानीं तादृशम् अस्ति तर्हि तत्र शब्दम् उपयुज्य वयम् आकाशः अस्ति आकाशनामकद्रव्यम् अस्ति इति निरूपितवन्तः इदानीं तथैव तत्र वायुनिरूपणे किं कृतवन्तः
वायुनिरूपणावसरे अपि यः स्पर्शः अस्ति
स्पर्शः अनुभूयते अतः अनुभूयमानः स्पर्शः अपि स्पर्शः कुत्र अस्ति पृथ्व्याम् अस्ति वा स्पर्शः
पृथ्व्यां
स्पर्शः नास्ति वा घटः स्प्रष्टुं शक्नुमः खलु
स्पर्शः अस्ति पृथिव्यां
जले
अपि स्पर्शः अस्ति
किन्तु तत्र वायो कीदृशः स्पर्शः तर्हि
वायो
अस्तु अस्तु चिन्ता मास्तु महोदय एतावत् समीचीनं तत्र अग्रे अन्य कोऽपि वदेत् चिन्ता मास्तु समीचीनं महोदय एतावत् यतोहि तत् अत्र बहु किमपि अस्ति समीचीनं महोदय अस्तु अग्रे तर्हि तत्र तर्हि तत्र चन्द्रमति भगिनी तत्र स्पर्शः कुत्र भवति
शीतस्पर्शः वायोः भवति वायो
अपि तत्र कीदृशः स्पर्शः तत्र
शीतस्पर्शः
जले अस्ति उष्णस्पर्शः कुत्र अस्ति
अग्नौ
तेजसि समीचीनं किन्तु तत्र स्पर्शः वायो यः स्पर्शः अस्ति सः कीदृशः तत्र रूप तत्र वायोः रूपमस्ति वा
न रूपरेखा
तत्र रूपरहितत्वे सति तत्र स्पर्शवत्वं खलु वायोः
लक्षणं
अतः तत्र सः स्पर्शः यः वायौ अस्ति सः स्पर्शः भिन्नः खलु अतः विजातीयस्पर्शः अनुभूयमानः तस्य आशयः भवेत् इति कृत्वा वयं वायुः अस्ति इति अतिरिक्तं द्रव्यं नाम नूतनद्रव्यं पृथ्वी नास्ति जलं नास्ति इति तत्र वायुः नूतनद्रव्यम् इति साधितवन्तः अनुमानेन साधितवन्तः समीचीनं हा अनुमानेन साधितवन्तः इदानीं तत्र तद्वत् इति आरभ्य एकवारं पठित्वा किञ्चित् वदतु भगिनि हा
तद्वत् ईश्वरानुमानाय प्रसिद्धः ज्ञानमान न कोऽपि गुणः ज्ञानमानः न कोऽपि गुणः वर्तते यमादाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत अतः अत्र अत्रत्या रीतिः अस्ति अन्यादृशी अत्र वायुः शब्दरहित वायु विजा शब्द रूपरहितस्पर्शत्वेन वयम् अनुमानं कर्तुं शक्यते किन्तु ईश्वरस्य अनुमानं कर्तुं तादृशः गुणः किमपि न वर्तते न कोऽपि वर्तते गुणमादाय ईश्वरस्य अनुमानं कर्तुं न शक्यते तदाश्रयत्वेन
आश्रयत्वेन नाम सः गुणः गुणस्य आश्रयः भवेत् इति चिन्तयित्वा यद्यपि तत्र आत्मनि तत्र विशिष्टाः गुणाः सन्ति किन्तु परमात्मनि अपि सन्ति जीवात्मनि अपि सन्ति इति कृत्वा तत्र अत्र अतः तत्र अन्या रीत्या अनुमानं क्रियते
अन्यादृशी रीतिः एव स्वीकरणीया
इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे अग्रिमवाक्यद्वयं पठतु तर्हि
दण्डचक्रादिकारण समवधानेऽपि यदि कुलालः न भवति न खडः उत्पद्यते तन्तुरिवेमादीरु दीरुपकार उपकारसत्त्वेऽपि यदि तन्तुवायः न भवति न खड न पटः उत्पद्यते अत्र दण्ड खडनिर्माणे पृथ्वी अवश्यं किन्तु कुलालः न अस्ति चेत् चक्रं दण्डचक्रम् अनन्तरं पृथ्वी अस्ति चेत् खडनिर्माणं न भविष्यति अत्र कुलालस्य अपि आवश्यकः अस्ति कुलालस्य अस्ति चेत् एव खडस्य निर्माणं खड उत्पादनं भवति तादृशम् एव तन्तु तद्वायः अस्ति चेत् अपि पटस्य निर्माणम्
अस्ति चेत् एव
अस्ति चेत् एव पटस्य निर्माणम् अपि भविष्यति
समीचीनं हा समीचीनं भगिनि तथैव अस्ति अस्तु समीचीनं धन्यवादः
अस्तु
अग्रे हा धन्यवादः भगिनि अस्तु अग्रे तर्हि तत्र इदानीं तत्र शोभा भगिनी इदानीं तत्र अत्र तत्र दण्डचक्रादिकारण समवधानेऽपि इत्युक्ते तत्र किमस्ति
अस्तु दण्डचक्रादिकारणसमवधाने अपि इत्युक्ते दण्डचक्रादि इति दण्डं चक्रम् अपि च तत्र घट उत्पत्तिसमये यानि अधिकरणानि भवन्ति कारणानि भवन्ति यथा दण्डचक्रादिकारण सम अवधाने अपि समवधाने अपि इत्युक्ते तेषाम् उपस्थितिः अस्ति
चेदपि ते सन्ति इति समीचीनं समवधाने अपि नाम समवधानं नाम ते सन्ति तत्र
अपि यदि कुलालः न भवति न घटः उत्पद्यते
तथैव तत्र यदि तन्तुवायः नास्ति चेत् पटः
उत्पद्यते
हा अस्तु समीचीनम् इदानीम् अग्रे
तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कालचक्रादयः कपालचक्रादयः यथा अपेक्षिताः तथा एव चेतना अपि कश्चित् आवश्यकः तेन ईदृशनियमः आगतः किञ्चित् कार्यम् उत्पद्यते चेत् चेतना अपेक्षा वर्तते तर्हि तत्र पूर्वं यदुक्तं सर्वाणि सर्वे सामग्र्यः
तत्र
सन्ति चेदपि
कारणसामग्री नाम कारणसमूहः
कारणसमूहः अस्ति चेदपि यतोहि ते अचेतनवस्तु भवन्ति इति कृत्वा तत्र सचेतनः कोऽपि भवेत् कार्यम् उत्पादनीयम् इति तत्र
चेतनः कः प्रथम उदाहरणे चेतनः कः
प्रथम उदाहरणे कुलालः एव सचेतनः
चेतनः अपि तत्र पटस्य उत्पादने
तत्र तन्तुवायः यः वस्त्रं निर्माति तन्तुवायः न भवति चेत् तत्र चेतनः भवति पटः न उत्पद्यते
तेन किं चेतनस्य आवश्यकता कोऽपि भवेत् चेतनः
इति
कारणसामग्र्यां चेतनः अपि किमपि कारणं भवेत् चेतनवस्तु अथवा चेतनः कोऽपि भवेत् कारणसामग्र्यां
तथा एव तेन वयम् अवगच्छामः किमपि कार्यम् उत्पादनीयं चेत् तत्र अचेतनाः कपालचक्रादयः यथा अपेक्षिताः पूर्वस्मिन् यथा पूर्वयोः उदाहरणयोः कपाल अपि कपालचक्रादयः ते अपि भवेत् तथा एव चेतना अपि कश्चित् आवश्यकः इति किमपि कार्यम् उत्पादनीयं चेत् तत्र सामग्री भवेत् अपि च चेतनः अपि कोऽपि आवश्यकः अस्ति एव नो चेत् कार्यं न भवति इति
न भवति इति समीचीनं हा अस्तु धन्यवादः भगिनी हा अस्तु
धन्यवादः महोदय
अग्रे अग्रे तर्हि तत्र हा इदानीं तत्र मृणालिनी भगिनी अग्रे
आम् एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते तथापि कार्योत्पत्ति दृश्यते यथा द्व्यनुकादिसंयोगपरम्परया महापृथ्वीगोलः महज्जलं सूर्यादितेजांसि उत्पद्यन्ते तत्र यः चेतनः अस्मदादिभिन्नः स्वीकर्तव्यः भवति स एव ईश्वरः एवं सति यत्र अस्मादृशाः तर्हि अस्मादृशः इत्युक्ते लैक् अस् आल् वा अल्पज्ञाः कुलालादयः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते यथा
तत्र वाक्यस्य अर्थः वदतु तदनन्तरम् अग्रे पठतु
कानिचन स्थलेषु अस्मादृशः अल्पज्ञाः कुलालादयः इत्युक्ते कुलालः तन्तुवायः एतादृशः जनाः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते
नाम तत्र अनेकानि कार्याणि वयं पश्यामः यत् वयं न स्मः अपि न नाम कर्तारः न स्मः कुलालादयः अल्पज्ञाः वयं तु अल्पज्ञाः खलु नाम वयं तत्र सर्वेषां कार्यं कर्तुं तत्र अस्माकं सामर्थ्यमस्ति इति नास्ति खलु तत्र कार्य उत्पादने तत्र चेतनः अपि चेतनः कोऽपि भवेत् अपि यत्र अस्मादृशाः न वर्तन्ते तथापि तत्र कार्योत्पत्तिः दृश्यते नाम कार्याणि भवन्ति तत्र उदाहरणानि अग्रे दत्तानि उदाहरणं किम् अस्ति प्रथम उदाहरणं
द्व्यनुकादिसंयोगपरम्परया महापृथ्वीकोलः महत् जल
तत्र तर्हि तत्र तत् किमस्ति
ध्यानकादिसंयोगपरम्परया
महापृथ्वीगोलः नाम
महापृथ्वीगोलः अस्माकं पृथ्वी वा
पृथ्वी हा समीचीनं तथैव अस्ति पृथ्वी इति यस्मिन् वयं निवसामः तत्र पृथ्वी गोलरूपेण अस्ति खलु महापृथ्वीगोलः सः गोलः गोलः तत्र नित्यवस्तु वा तत्र
न
नित्यवस्तु वा न्यायशास्त्रे नाम तत्र महापृथ्वीगोलः
तत् अनित्य अस्ति
अनित्य अस्ति तस्य निर्माणं कदाचित् अभवत् खलु अपि तत्र केवलं तत्र पार्थिवपरमाणवः नाम पार्थिवपरमाणवः जलीयपरमाणवः एव तत्र नित्यं खलु तत्र अतः पृथ्वीगोलः नित्यं नास्ति गोलः नित्यः नास्ति अतः तस्य तत् कार्यम् अस्ति नाम तस्य उत्पत्तिः कदाचित् अभवत् खलु
तर्हि तस्य उत्पत्ति द्व्यानुकादिसंयोगपरम्परया उत्पन्नं वा पृथ्वीगोलः
इति वयं पूर्वं पठितवन्तः खलु तत्र सर्वे तत्र द्वयणकम् अन्यत् द्वयणकं तत्र मेलनेन तत्र द्वयणकस्य मेलनेन त्रयणकं भवति तदनन्तरं तत्र ये यानि यानि वस्तूनि वयं पश्यामः तेषां सर्वेषां निर्माणं भवति इति तर्हि संयोगसम्बन्धेन तत्र तेषां निर्माणं भवति इति कृत्वा तत्र अवयवाः तु परमाणवः सन्ति संयोगसम्बन्धेन तत्र महापृथ्वीगोलस्य निर्माणम् अभवत् तर्हि तत्र तत् कार्यमस्ति इति कृत्वा तस्य कर्ता कोऽपि भवेत् खलु
तथैव द्व्यानुकादिसंयोगपरम्परया महज्जलमपि निर्मितं खलु
महागोलः महापृथ्वीगोलः तस्य कर्ता कोऽपि भवेत् वयं तत्र महापृथ्वीगोलः गोलं कर्तुं शक्नुमः वा
न
हा अतः तत्र अपि वयं तस्मिन् समये नासं खलु हा अतः तत्र अन्य कोऽपि किन्तु कर्ता कोऽपि भवेत् तथैव अग्रे
तथैव द्व्यानुकादिसंयोगपरम्परया महत् जलं निर्मितम् सूर्यादितेजांसि उत्पद्यन्ते
हा तत्र सूर्यादितेजांसि इति वचनं किं तत्र
तेजांसि प्रथमबहुवचनं
हा
सूर्यादि
तेजांसि हा समीचीनं ते सर्वे उत्पद्यन्ते अतः तत्र अथवा तानि
तत्र तेजः यः चेतनः अस्मदादिभिः अस्मदाभिन्नः अस्मदादिभिन्नः स्वीकर्तव्यः भवति सः एव ईश्वरः
तर्हि तत्र यः कर्ता अस्ति अपि तत्र सः कर्ता एतत् सर्वाणि कार्याणि कृतवान् इति तत्र कर्ता कोऽपि भवेत् इति अनुमानेन इदानीम् अभवत् खलु तर्हि यतोहि कार्यमस्ति चेत् कारणं भवेत् कार्यं कारणं कारणसामग्र्यां चेतनः कोऽपि भवेत् चेतनः वयं तु न भवितुम् अर्हामः कुलालादयः न भवितुम् अर्हन्ति तर्हि तत्र अस्मदादि भिन्नः स्वीकर्तव्यः अपि तत्र किमर्थं तत्र प्रत्येकस्य कर्ता भिन्नः इति न स्वीकृतं किन्तु तत्र सर्वेषां कर्ता एकः इति एव स्वीकृतम्
एतादृशं यत्र निश्चयेन वक्तुं न शक्नुमः तस्य एकमेव स्वीकृतं खलु
अनुमानेन वयं किमपि साधयामः तत्र लाघवं गौरम् इति आसीत् खलु
लाघवं भवेत्
एकः यावत्पर्यन्तं तेन दोषः न भवति तावत्पर्यन्तम् एकः तथैव तत्र आकाशः एकः इति स्वीकृतवन्तः खलु तथैव अत्रापि एकः एव कर्ता सर्वेषां तत्र महापृथ्वीगोलः महज्जलम् एतत् सर्वेषां कर्ता एकः एव सः ईश्वरः इति स सः एव परमात्मा इति वयम्
आचार्य वायुः अपि एकम् एव स्वीकृतं खलु एकवचनं वायु
वायुः न वायुः भिन्नः अस्ति खलु वायोः परमाणवः सन्ति शरीरम् अस्ति तत्र भेदाः सन्ति खलु वायुः एकः नास्ति भगिनि हा जलं वायुः तेजः तेषां तत्र निर्माणसमये वयं दृष्टवन्तः खलु नित्या नित्या एतत् सर्वं वयं दृष्टवन्तः केवलं तत्र अनुमानेन अपि वायुः अनुभवेन वयं जानीमः तत्र शरीरान्तः वायुः भिन्नः येन वायुना तत्र पर्णानि तत्र कम्पनं भवति खलु वायुः भिन्नः इति वयं तत्र अनेकत्वं तत्र स्वीकर्तव्यम् आसीत् खलु अतः तत्र स्वीकर्तुं आसीत् समीचीनप्रश्नः तत्र तु स्वीकर्तुं आसीत् अतः तत्र नियमः तस्मिन् समये उक्तः नाम यावत्पर्यन्तम् एकत्वम् एकत्वम् इति स्वीकारेण दोषः न भवति तावत्पर्यन्तम् एकः इति चिन्तयामः यतोहि तत्र अस्माकं प्रत्यक्षं ज्ञानं नास्ति अतः अनुमानेन साधितम् अस्ति इति कृत्वा लाघवार्थम् एकः एव अतः तत्र कर्ता एकः एव सः सः एव ईश्वरः इति स्वीकर् सः एव ईश्वरः एकः एव कर्ता इति स्वीकर्तव्यः भवति अस्तु समीचीनं भगिनि हा धन्यवादः अस्तु अग्रे जयलक्ष्मी भगिनी अग्रे
महोदय किञ्चित् अनन्तरं पठामि महोदय
अस्तु भगिनि अस्तु तर्हि अग्रे तत्र उषा भगिनी अग्रे
अस्तु महोदय तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वज्ञः आकाशादिरूपणे आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति तस्य एकत्वम् अपि सिद्ध्यति अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तं परः उत्कृष्टः उत्कर्षश्च ज्ञान इच्छाकृतीनां नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्वात् बोध्यः तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वज्ञः तस्य इति ईश्वरः इस् नाट् अल्पज्ञत्वे अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् कुलालादिभ्यः अस्मदादिभ्यः अल्पज्ञः तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वज्ञः तस्य कृते ईश्वरस्य कृते अल्पज्ञः नास्ति इति वैलक्षण्यम् इति वैलक्षण्यं
वैलक्षण्यं नाम परस्परभेदः नाम सः भिन्नः वयं सर्वे स्मः तत्र कुलालादिभ्यः वैलक्षण्यं नाम कुलालादिभ्यः भिन्नः सः भवेत् खलु
आं महोदय
अतः तत्र किन्तु वयं जानीमः तत्र कुलाला आदयः अस्मादृशाः कीदृशाः वयं सर्वे अल्पज्ञाः यदि ईश्वरः अपि अल्पज्ञः तस्य अल्पज्ञत्वे नाम यदि सः अल्पज्ञः इति इति चिन्तयामः
चेत्
तदा कुलालादिभ्यः वैलक्षण्यं न स्यात्
अस्तु महोदय
न भवति
देन् परमात्मा अपि लैकस् इति
तत्र भेदः न वर्तते अस्मादृशाः एव सः अपि इति भवति
अस्तु महोदय
अतः तत्र वैलक्षण्यं न भवति अतः अल्पज्ञः इति स्वीकारः
न
मास्तु अतः एव सः
सर्वज्ञः
इति भवति.
आम् महोदय. आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति, आकाशनिरूपणे आकाशः इति पदार्थः सिद्ध्यति अनुमानेन एव, तस्य बहुत्वसाधकयुक्तिः यदि नास्ति, तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति, तस्य एकत्वम् इति सिद्ध्यति. भवान् उक्तवान् तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा लाघवम् इति कृते एव पदार्थः एकः एव स्वीकृतः अत्र आकाशनिरूपणे
स्वीकुर्मः. नाम तत्र युक्तिः नाम कोऽपि किमपि कारणं, नाम तत्र येन कारणेन स्वीकर्तव्यं भवति तावत्पर्यन्तं, नाम कारणं विना बहुत्वं वयं न स्वीकुर्मः. तत्र गौरवं भवति. किमर्थं तत्र गौरवं भवति, किमर्थं लाघवं न भवति? तत्र यदि तत्र अनेके तत्र पदार्थाः सन्ति, अनुमानेन किमपि साधितुम् इच्छामः किन्तु तत्र अनेके अनेके पदार्थाः सन्ति इति स्वीकुर्मश्चेत् तत्र गौरवं किमर्थं भवति?
अनेके पदार्थाः कारणम् इति चेत्
कारणं न, तत्र अनेके पदार्थाः तत्र सन्ति तत्र आकाशनिरूपणे अथवा वायुनिरूपणे अनुमानेन वयं निरूपणम् अनुमानेन कृतवन्तः. तत्र आकाशनिरूपणे एकत्वं स्वीकृतवन्तः किन्तु तत्र वायुनिरूपणसमये तत्र अनेकत्वम् इति स्वीकृतवन्तः. किमर्थं? तत्र अनुभवः इति
आसीत्.
अतः तत्र कारणं
स्पर्शम् अनुभवः अनुभवामः
अपि तत्र न वायुः भिन्नः नाम अस्माकं शरीरे यः वायुः वर्तते तत्र पञ्चप्राणाः
पञ्चप्राणाः
ते तु भिन्नाः, अपि यः वायुः बहिः तत्र पर्णस्य कम्पनं कम्पनहेतुः अस्ति, कारणमस्ति वृक्षस्य कम्पनं पर्णानां कम्पनं करोति, सः वायुः भिन्नः इति कृत्वा तत्र अनेकत्वं वयं स्वीकृतवन्तः. किन्तु तत्र तदा वयं तत्र नियमः कः आसीत्, यावत् युक्तिः नास्ति तावत् एकत्वं लाघवं, यतोहि तत्र अनेके पदार्थाः सन्ति चेत् तत्र किमर्थम् अनेकाः सन्ति, अपि तत्र कुत्र कुत्र वसन्ति, परस्परभेदः कः, खलु?
यदि
द्वयमस्ति चेत् अस्तु तत्र द्वयोः मध्ये कः भेदः, कः भेदः, किमर्थं भिन्नः अस्ति, अतः तत्र गौरवं भवति. एकत्वम् इत्युक्ते अस्तु एकः एव, यावत्पर्यन्तं तेन हानिः नास्ति तावत्पर्यन्तम् एकः इति स्वीकुर्मः. तथैव तत्र नित्यम् इति अपि तत्र लाघवं वा गौरवं वा नित्यं नित्यत्वे नित्यत्वम् इति स्वीकरणेन
नित्यत्वम् इति स्वीकरणेन लाघवमेव
लाघवं, यतोहि नित्यं नास्ति चेत् किं भवति, तस्य उत्पत्तिः कदा अभवत्,
कदा अभवत् इति
ध्वंसः कदा भवति, अपि तत्र पुनः पुनः तत्र उत्पत्तिः भवति ध्वंसः भवति वा, तत्र तस्य अभावः कीदृशः, अन्योन्य अभावः तत्र अत्यन्त अभावः, एतत् सर्वं आगच्छति इति कृत्वा नित्यत्वम् अपि वयं स्वीकृतवन्तः. अतः एकत्वं नित्यत्वं
लाघवम् इति
लाघवं स्वीकृतवन्तः. अतः तत्र ईश्वरः अपि एकः नित्यः इति वयं स्वीकुर्मः. अग्रे
अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तम् प्रथमवाक्ये. तदापि अस्मदादिभ्यः तस्य ईदृशं विलक्षणं वक्तुं परमात्मा इत्युक्तम्. ईश्वरः अस्मदादिभ्यः वैलक्षण्यं
डिफ्रेण्ट्
भिन्नः भिन्नः इति वैलक्षण्यं
विलक्षणः नाम सः भिन्नः
विशेषः
वक्तुम् इति वक्तुं
परमात्मा
अथवा विलक्षणत्वं तस्य भावः.
आम्
सुन्दरः सुन्दरत्वं
त्वं
सौन्दर्यं तथैव तत्र उष्णम् औष्ण्यं तथैव तत्र भावः अथ सः विलक्षणः ईश्वरः अस्मादिभ्यः विलक्षणः इति वक्तुं तस्य विलक्षणत्वम् अस्ति नाम तस्मिन् विलक्षणत्वम् अस्ति नाम सः अस्मादृशाः तत्र सदृशः नास्ति इति वक्तुं वयं तत्र केवलम् आत्मा इति न वदामः किन्तु परमात्मा इति
वदामः परः इत्युक्ते उत्कृष्टः
परः इत्युक्ते उत्कृष्टः
उत्कर्षश्च उत्कर्षश्च उत्कर्षः ज्ञानेच्छय ज्ञान इच्छाकृतीनां नित्यत्वात् उत्कर्षः च ज्ञान इच्छाकृतादि कृतीनां नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्वात् बोध्यः परमात्मनि उत्कर्षः ज्ञान इच्छाकृति ओके नित्यमपि अस्ति उत्कर्षः
तत्र आत्मनः विशिष्टगुणाः के सन्ति अधोभागे अस्ति
आम् नवगुणाः बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनासंस्कारः आम् महोदय
भावनाच्च संस्कारः खलु तत्र आत्मनः विशिष्टगुणाः
गुणाः विशिष्टगुणः
किन्तु तत्र आत्मनः विशिष्टगुणाः ते सन्ति किन्तु परमात्मनि केवलं तत्र ज्ञान नाम बुद्धिः ज्ञान इच्छा कृतिः प्रयत्नः प्रयत्नः नाम कृतिः
इति एव उत्कर्षः इति ज्ञान इच्छा कृतीनां नित्यत्वात् ओके
तत्र तत्र किमस्ति तेषां नित्यत्वात् ते नित्यः सन्ति नाम बुद्धिः तत्र सर्वज्ञः अपि तस्य ज्ञानं नित्यमस्ति अस्माकं ज्ञानं नित्यं नास्ति प्रतिक्षणम् अस्माकं ज्ञानं परिवर्तितं भवति ज्ञानम् उत्पद्यते ध्वंसः भवति तदनन्तरं नूतनज्ञानम् उत्पद्यते तदनन्तरं तस्य ध्वंसः
भवति
क्षणिकम् अस्ति अस्माकं ज्ञानं तस्य ज्ञानं तादृशं नास्ति अतः तत्र तस्मिन् यद् ज्ञानं वर्तते तद् ज्ञानं नित्यमस्ति अपि इच्छा अपि नित्यमस्ति अपि कृति अपि प्रयत्नः इति गुणः सः अपि नित्यः
नित्यम् अस्ति
अपि सुखदुःखादीनां
परमात्मनि असत्वात् बोध्यः
तत्र सुखदुःखादि एतत् सर्वं तत्र सुखदुःख इति तत्र नित्यः नास्ति इति कृत्वा ते गुणाः तत्र सुखम् इति गुणः अपि दुःखम् इति गुणः परमात्मनि न वर्तन्ते
न वर्तते
इति अतः तत्र परमात्मनि केवलं तत्र ज्ञान इच्छा कृति इति गुणः एव वर्तन्ते सुख इति गुणः न वर्तते दुःख इति गुणः न वर्तते इति न्यायशास्त्रे स्वीकृतम् अस्ति
प्रश्नः अत्र सुखदुःखादीनां बहुवचनमस्ति तर्हि सप्त नवगुणाः खलु तेषु बुद्धिः इच्छा
तत्र बुद्धिः इच्छा प्रयत्नः एव सन्ति तत्र सुखं नास्ति दुःखं नास्ति सुखं नास्ति चेत् तत्र सुखस्य कारणं नाम पुण्यं पापं भावनाच्य संस्कारः एतत् सर्वमपि नास्ति
अहं चिन्तयामि सुखं नास्ति दुःखं नास्ति द्वेष नास्ति धर्म अधर्म तथा भावनाख्यसंस्कार एते सर्वे नास्ति न भवति
सत्यं
तर्हि त्रीणि विहाय अन्ये सर्वे सुखदुःखादिना
सत्यं सत्यं तथैव
इतोपि एकः प्रश्नः आचार्य तत्र प्रथमं वाक्यं यदासीत् खलु तस्य अल्पज्ञत्वे तस्य इत्युक्तौ ईश्वरस्य खलु ईश्वरस्य अल्पज्ञत्वे सति कुलालादिभ्यः अत्र पञ्चमी एकवचनमस्ति वा कुललादिभ्यः
सत्यं यतोहि तस्मात् अथवा तेभ्यः वैलक्षण्यं न स्यात् इति तेभ्यः वैलक्षण्यं नाम तेभ्यः भिन्नः सः न स्यात् इति
वैलक्षणं तर्हि कस्य वैलक्षणं न स्यात् ईश्वरस्य वा
ईश्वरस्य वैलक्षणं
यदि वयं सः अपि अल्पज्ञः इति स्वीकुर्मः तत्र भेदः न भवति खलु भिन्नः न भिन्नः अस्ति इति न वक्तुं शक्नुमः खलु अतः सः अस्मादृशः न अस्ति अतः तत्र सः भिन्नः इति वक्तुं तत्र वयम् अल्पज्ञत्वं
चिन्तितवती कुलालादिभ्यः वैलक्षण्यं तेषां वैलक्षणम्
अस्माद् तत्र मनुष्या इत्यादि अतः तत्र
अतः
कृत्वा
तत्र पञ्चमी एकवचनं
भवति
तस्य इत्युक्तौ ईश्वरस्य वैलक्षणं न स्यात्
अस्तु समीचीनम् अस्तु अग्रे सरामः हा विमला भगिनी नमस्कारः
नमस्कारः महोदय प्रश्नः अस्ति अत्र उत्कर्षश्च ज्ञान इच्छा कृतीनां नित्यत्वात् इत्युक्ते ज्ञान इच्छा अपि च कृति कृति इत्युक्ते सृष्टिः अस्ति या कार्यमस्ति कृति इत्युक्ते
न न कृति इति अत्र कृति इति तत्र कार्यं नास्ति भगिनि कृति इति अत्र प्रयत्नः
अस्तु एते नित्याः इत्युक्ते तस्य उत्पादनमस्ति ध्वंसः अपि अस्ति इति न ना, नास्ति इति
सत्यं
भगिनि ते सर्वे नित्याः
नित्याः
परन्तु इच्छा उद्भवति परन्तु
तत्र तादृशं नास्ति अस्माकम् इच्छा अस्माकं ज्ञानम् अस्माकं प्रयत्नः भिन्नः ईश्वरस्य विद्यमानाः एते गुणाः भिन्नाः नाम ते नित्याः इति
अस्तु
अतः एव तत्र उत्कर्षः सः इति
सुखदुःखादिनां परमात्मनि अस्तुत्वात् अस्य मया चिन्तितं परमात्मने केवलं सुखदुःखादीनां सुखदुःखादि नास्ति परन्तु ज्ञान इच्छा अपि कृति अस्ति इति तादृशं नास्ति
तदेव अस्ति ज्ञानमस्ति इच्छा अस्ति परमात्मनि ज्ञानम् अस्ति इच्छा अस्ति कृति अपि अस्ति अपि एते नित्याः नित्यगुणाः सन्ति नाम सर्वदा सन्ति अपि तत्र यावत्पर्यन्तम् एकम् इति एव चिन्तनं नाम तत्र क्षणी तत्र प्रतिक्षणं तस्य परिवर्तनं भवति इति नास्ति सः तत्र तस्य ज्ञानं सर्वदा तत्र सर्वज्ञः अस्ति तस्य ज्ञानं तत्र एकम् इति एव तत्र नित्यम् इति तस्य ज्ञानम् अपि इच्छा अपि नित्यम् इति
अस्तु
सर्वदा अस्ति इति वदतु भगिनि
कृति इत्युक्ते कार्यं वा
कृति इति प्रयत्नः अग्रे अग्रे तत्र अग्रिमे पुटे एव तत्र ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परभेदः अग्रिम
ओके ओके अस्तु
उपशीर्षकः अस्ति
प्रयत्नः अस्तु अस्तु
कृतिः इत्युक्ते प्रयत्नः
अस्तु अस्तु महोदय धन्यवादः
अतः तत्र अग्रे तत्र तस्य तेषां विवरणम् अग्रे एव भवति
अस्तु धन्यवादः
अस्तु समीचीनम् अग्रे
पठितुं शक्नोमि महोदय
अस्तु भगिनि जयलक्ष्मी भगिनि पठतु तर्हि
ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परं भेदः अत्र प्रसङ्गात् ज्ञानादीनाम् आनुभविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति तत्र अनेकविधान् वृक्षान् पश्यति केचन पुष्पिताः केचन फलिताः केचन पत्रमयाः दृश्यन्ते इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम् अयमेक आत्मगुणः अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति न तु वृक्ष्यमाणाः इच्छा प्रयत्नः वा अत्र पूर्वम् उक्तं यत् परमात्मनि केवलम् उत्कृष्टः ज्ञान इच्छा कृतीनां नित्यत्वात् ते एव भवन्ति न तु सुखदुःखादि भावाः इति उक्तं तस्य उदाहरणार्थं ज्ञानादिकम् आनुभविकं वैलक्षण्यम् इति उदाहरणेन समर्थयति अत्र
नाम ज्ञानम् इच्छा कृतिः इति
त्रयाणां
परस्परं भेदः नाम तत्र ज्ञानं भिन्नम् अस्ति इच्छा भिन्नं भिन्ना अस्ति कृतिः अपि भिन्ना अस्ति इति
उदाहरणेन उक्तमस्ति उदाहरणमस्ति कश्चन व्यक्तिः ग्रामान्तरं गन्तुम्
अपि तत्र क्षम्यताम् अपि तत्र ज्ञानादीनाम् आनुभविकं वैलक्षण्यं नाम तत्र वैलक्षण्यम् अस्ति केवलं वैलक्षण्यम् अस्ति इति ज्ञानं न वैलक्षण्यम् अस्ति इति अनुभवेन वयं ज्ञातुं शक्नुमः
ज्ञानादीनां वैलक्षणम् अस्ति इति अनुभवं कथं भवति इति उदाहरणम् अनुभविकम् अस्ति इति
अनुभविकम् अस्ति इति वैलक्षणम्
अत्र उदाहरणमस्ति कश्चन व्यक्तिः अन्यत् ग्रामं गच्छति सः गन्तुं वेलायां गवाक्षात् बहिः पश्यति सः
गच्छन् अस्ति खलु सः यानेन गच्छन् अस्ति
सः गच्छन् अस्ति सः बहिः पश्यति यदा गच्छन् अस्ति तदा गवाक्षात् वातायनात् बहिः उद्यानानि पश्यति तत्र बहुविधान् वृक्षान् पश्यति सः केचन वृक्षाः पुष्पिताः केचन वृक्षाः फलिताः केचन वृक्षाः पत्रमयाः च दृश्यन्ते तं दृश्यन्ते तेन दृश्यते तथा सः यत् पश्यति अथवा तेन यत् दृश्यते इत्यादिभिः व्यवह्रियते
तत्
प्रकाशात्मकं ज्ञानं इत्युक्ते तेन तेन यत्किमपि तेन दृश्यते तदेव प्रकाशात्मकं ज्ञानम् इति तस्य मनसि भवति
हा इदानीं तत्र किञ्चित् वक्तव्यमस्ति तर्हि तत्र अत्र अत्र व्यवह्रियते इति अस्ति खलु व्यवह्रियते तत्र व्यवह्रियते इति तत्र कर्मणि प्रयोगः किन्तु तत्र व्यवहारः अस्ति इति खलु हा व्यवहारः नाम किम्
व्यवहारः पारिभाषिकशब्दः वा
तत्र व्यवहारः इति पूर्वं वयं दृष्टवन्तः ज्ञानजनकशब्दप्रयोगः खलु ज्ञानजनकशब्दप्रयोगः अतः तत्र दृश्यते पश्यति इति एते शब्दाः सन्ति तैः किं भवति शब्द
ज्ञानजनकं भवति
ज्ञानम् उद्भवति खलु ज्ञानस्य उत्पत्तिः भवति अतः तत्र अपि ज्ञानं कीदृशम् अस्ति तत्र यदि तत्र वृक्षं पश्यामः तर्हि वयं पूर्वं साधितवन्तः खलु तत्र अस्माकं तत्र नेत्रः अस्ति खलु तत्र नेत्रः अस्ति नेत्रात् तत्र वृक्षः अस्ति इति कृत्वा तत्र प्रकाशात्मकं तत्र दीपम् इति चिन्तयित्वा तत्र ज्ञानस्य दीपा इति दीपमपि दीपस्य प्रकाशः एव तत्र विषयता इति एतत् वयं पूर्वं चित्ररूपेण पठितवन्तः खलु तर्हि तत्र प्रकाशः ज्ञान एव प्रकाशः अतः प्रकाशात्मकं ज्ञानं तेन नाम तत् निरूपितं नाम विषय तत्र विषय तत्र घटः अस्ति चेत् घटनिरूपकं घटविषयक घटविषयकं ज्ञानं खलु घटनिष्ठ विषयतानिरूपित ज्ञाननिष्ठ विषयिता इति एतत् सर्वं वयं पूर्वम् उक्तवन्तः खलु. हा तर्हि तत्र ज्ञानमस्ति चेत् ज्ञानस्य विषयः अस्ति, विषयः अस्ति चेत् तस्य ज्ञानः अस्ति, तत्र परस्परनिरूप्यनिरूपकभावः अस्ति, अपि ज्ञानं प्रकाशयति खलु. प्रकाशात्मकं ज्ञानं तत्र विषयेण निरूपितमस्ति, अतः तत्र शब्देन ज्ञानं भवति, अपि तद् ज्ञानं निरूपितमस्ति विषयेण, नाम यद्यत् पश्यति तेन तेन निरूपितमस्ति ज्ञानं खलु. अत एव तत्र व्यवह्रियते नाम तत्र ज्ञानजनकशब्दप्रयोगः, अपि तेन जन्यं यत् ज्ञानं तद् निरूपितमस्ति विषयेण इति. अस्तु अग्रे.
अस्तु अयम् अयम् एकः आत्मगुणः.
अतः तत्र ज्ञानम् इति एतावत् यद् पठितवन्तः सः तद् ज्ञानम् आत्मगुणः,
आत्मगुणः अस्ति. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाणाः इच्छा प्रयत्नः वा. अत्र ग्रामान्तरं गन्तुं यः प्रवृत्तः अस्ति तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति इत्युक्ते अनेकेषां वृक्षाणां ज्ञानानि इति भवति वा महोदय?
ज्ञानं ज्ञानं केश तत्र कस्य ज्ञानम् अस्ति तत्र यः गच्छति?
हा यः गच्छति गच्छन् अस्ति तस्य प्रवृत्तिः प्रवृत्तेन प्रवृत्तया एव
सः गच्छन् अस्ति. सः कस्य ज्ञानं प्राप्तवान्? वृक्षाणां
वृक्षाणां ज्ञानं प्राप्तवान्
नाम वृक्षाणां ज्ञानं तस्मिन् अस्ति खलु. अनेकेषां वृक्षाणां ज्ञानानि
इदानीं यः पश्यन् अस्ति तस्मिन् अस्ति
खलु खलु. अतः एव तत्र अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य यः यः अस्ति तस्य ज्ञानानि कीदृशानि? अनेकेषां वृक्षाणां ज्ञानानि भवन्ति एव, न तु वक्ष्यमाणा इच्छा प्रयत्नः वा. नाम केवलं वृक्षाणां ज्ञानमस्ति, ज्ञानमेव अस्ति, सः गुणः एव अस्ति, किन्तु अग्रे
न तु इच्छा वा प्रयत्नः,
इच्छा वा प्रयत्नः इदानीं तस्मिन् नास्ति. तस्य केवलं ज्ञानमस्ति, वृक्षाणां ज्ञानमेव एतावत् अस्ति. अपि प्रवृत्तस्य इति तत्र प्रयत्न
व्यक्तेः यः व्यक्तिः अस्ति तस्य
तस्य अपि तत्र प्रवृत्तिः नाम सः प्रयत्नः तत्र ग्रामान्तरं गन्तुं प्रयत्नं कुर्वन् अस्ति. अतः प्रवृत्तः इत्युक्ते कृतिमान्, सः अपि कृतिमान्, सः कृतिमान् अस्ति नाम प्रयत्नः प्रवृत्तः नाम सः ग्रामान्तरं गन्तुं प्रयत्नं कुर्वन् अस्ति. अतः प्रवृत्तस्य अपि तत्र प्रवृत्तिः नाम प्रयत्नः. अतः तत्र तस्मिन् प्रवृत्तिः अपि अस्ति किन्तु तत्र गन्तुं ग्रामान्तरं गन्तुं प्रयत्नं कुर्वन् अस्ति किन्तु वृक्षाणां कृते तत्र प्रयत्नः नास्ति. वृक्षाणां कृते तत्र प्रयत्नः नास्ति, केवलं वृक्षाणां ज्ञानमेव अस्ति.
अन्यत्र गन्तुं प्रयत्नः कृतवान् इति कारणेन सः कृतिमान् अस्ति, सः कृतिमान् अस्ति. वृक्षाणां दर्शनेन तस्य मनसि इदानीं ज्ञानं जातं, वृक्षाणां ज्ञानं अभवत्
अस्ति इदानीं तस्य वृक्षाणां ज्ञानम् अस्ति इति. समीचीनं. अस्तु धन्यवादः भगिनि. अस्तु अग्रे नीता भगिनी. अग्रे
आचार्य, तत्पूर्वम् अत्र ज्ञान इच्छा कृति त्रयाणां परस्परं भेदः अस्ति इति निरूपितुं उदाहरणं दत्तमस्ति. अतः किं सारः अस्ति कि यत् सः नेत्रेण पश्यति तत् केवलं ज्ञानमात्रेण तस्य अवगणं
नेत्रेण पश्यति इति तद् नास्ति केवलम् इदानीं अस्तस्य ज्ञानम् अस्ति तत्र
हा अत्र इदानीं तस्य ज्ञानस्य कारणेन तत् यत् यत्किमपि सः पश्यति तस्य किं दर्शनं वा
ज्ञानम् अस्ति केवलं ज्ञानम् अस्ति इदानीं तत्र
न तु इच्छाप्रयत्नकारणेन
इति वयं तत् तत् किम् इति एतावत् न उक्तवन्तः खलु अग्रे भवति किन्तु एतावत् तस्य ज्ञानम् अनेके वृक्षाः सन्ति केचन पुष्पिताः सन्ति केचन पलिताः सन्ति केचन पत्रमयाः सन्ति इति तादृशज्ञानं तस्य अस्ति
इतोपि तत् एकं वाक्यम् अस्ति खलु इदं यत् पश्यति तत्र इदं नपुंसकं स्वीकृतमस्ति तर्हि इदम् इत्युक्तौ ज्ञानं वा ज्ञानं यत् पश्यति
ज्ञानं कथं पश्यति खलु इदं नाम यत् पश्यति इदं किमपि यत् पश्यति तत्र यावत्पर्यन्तं वयं तत्र संस्कृतनियमः अस्ति खलु तत्र लिङ्गं न जानीमश्चेत् किं नपुंसकलिङ्ग एकवचनप्रयोगः भवति इति खलु तावदेव इदं किम् इति न उक्तम् अतः इदं यत् पश्यति
इदं यत् पश्यति दृश्यन्ते इत्यादिभिः व्यवह्रियन्ते तत् निरूपितं तत् प्रकाशात्मकं ज्ञानम्
इति तस्य विवरणमेव मया पूर्वं कृतमस्ति व्यवहारः नाम किं व्यवहारः नाम किं भगिनि
शब्दजनक प्रयोगः
अस्तु समीचीनं
शब्दजन्य
किं किं किं
व्यवहारशब्दजन्य ज्ञानजनकशब्दप्रयोगः
ज्ञानजन्य वा
ज्ञानजनक
जनकः कः तत्र
ज्ञानजनकशब्दप्रयोगः शब्दस्य उच्चारणेन यत् शब्दः एव जनकः
शब्दः एव जनकः शब्दप्रयोगः जनकः शब्दप्रयोगेन किं भवति ज्ञानम् उत्पद्यते खलु तर्हि अत्र शब्दः अस्ति वा
अत्र
दृश्यते एतत् सर्वं तत्र शब्दः अस्ति खलु पश्यति दृश्यते इति तर्हि तत्र व्यवहारः अस्ति खलु शब्दप्रयोगः तेन ज्ञानम् उत्पद्यते वा दृश्यते पश्यति हा तर्हि यद्यत् पश्यति सः वृक्षं पश्यति इति ज्ञानेन तत्र किं तत्र वृक्षात्मकं ज्ञानं भवति खलु वृक्षविषयकं ज्ञानं भवति खलु मनसि आत्मनि तत् तदेव
मम मनसि किं चिन्तनम् आगतम् इदं यत् पश्यति तत् निरूपितं प्रकाशात्मकं ज्ञानम् इति मम मनसि आगतं
तत्र एतत् वाक्यं किञ्चित् क्लिष्टकरं वाक्यम् अस्ति इति एव अहं तत्र उक्तवान् तत्र व्यवहारः अस्ति व्यवहारः शब्दप्रयोगेन ज्ञानं भवति खलु
इदं प्रकाशात्मकं ज्ञानम् इति मम मनसि वारं वारं चिन्तनं जातम् अतः
सत्यं भगिनि किन्तु ज्ञानं कीदृशम् अस्ति विषयः अस्ति ज्ञानस्य विषयः भवति खलु भगिनि
आम् आम्
तर्हि घटः इति विषयः चेत् तत्र ज्ञानं कीदृशं
घटः इति विषयः अस्ति तर्हि घटः अस्ति इति ज्ञानं
न न न्यायशास्त्ररीत्या वक्तव्यं घटविषयकं ज्ञानं खलु
आम् घटविषयकज्ञानं
हा नाम विषयता या घटे अस्ति अपि विषयिता या ज्ञाने अस्ति
ज्ञाने अस्ति
तयोः मध्ये कीदृशः भावः अस्ति कीदृशः सम्बन्धः अस्ति तत्र निरूपकभावः अस्ति
खलु, निरूप्यनिरूपकभावः,
अतः एव तत्र निरूपितं विषयेण निरूपितम् अपि ज्ञानं, तद् ज्ञानं प्रकाशात्मकम् अस्ति, नाम यदा ज्ञानस्य प्रकाशः, नाम यदा अस्माकं ज्ञानं भवति तदा एव तत्र पदार्थः विषयः भवति खलु. दीपस्य प्रकाशः इति पूर्वं चित्ररूपेण दर्शितमासीत् खलु, यस्य उपरि प्रकाशः भवति सः एव दृश्यते खलु, अतः तस्य एव ज्ञानं भवति, सः एव विषयः. यस्य उपरि तत्र अन्धकारे वयं तत्र प्रकोष्ठस्य अन्तः गच्छामः, न किमपि दृश्यते, किन्तु यदि किञ्चित् प्रकाशः भवति दीपस्य आनयनेन वयं किञ्चित् पश्यामः, अस्तु तत्र घटः अस्ति, तदा घटः विषयः भवति, किन्तु अन्ये ये पदार्थाः प्रकोष्ठे सन्ति ते न दृश्यन्ते चेत् ते पदार्थाः एव सन्ति, तेषां ज्ञानम् अस्माकं नास्ति खलु. अत एव प्रकाशात्मकं ज्ञानम् इति उक्तम्. अस्तु अस्तु, अग्रे सरामः तर्हि. अग्रे
तत्र
विमलाभगिनी अग्रे पठति वा
महोदय? क्षम्यताम्, एकः प्रश्नः.
वदतु भगिनि.
तत्र वाक्यस्य अन्तिमः भागः अस्ति खलु, न तु वक्ष्यमाण इच्छा प्रयत्नो वा इति न अवगतं महोदय.
नाम एतावत् तत्र वयं किम् अस्माकं कार्यम् अत्र किम् अस्ति, ज्ञानम् इच्छा कृतिः इति त्रयगुणाः सन्ति खलु.
आम्.
नाम तत्र नामानि भिन्नानि सन्ति, किन्तु ते भिन्नाः इति कथं ज्ञातुं शक्नुमः, नाम ज्ञानम् इति नाम तत्र एते तत्र पारिभाषिकशब्दाः खलु, नाम अतः तत्र तेषां वैलक्षण्यं किं नाम तेषां परस्परभेदः वर्तते इति उदाहरणेन इदा अग्रे प्रदर्श्यति. अतः इदानीं सः वृक्षान् दृष्टवान्, अनेकविधान् वृक्षान् दृष्टवान्, वृक्षाणां ज्ञानं तस्य अस्ति एतावत्.
सत्यं.
अग्रे अग्रिमे परिच्छेदे नाम इच्छा नाम किं, प्रयत्न कृतिः नाम किम् इति वक्ष्यते.
अस्तु,
अतः तत्र वक्ष्यमाणा इच्छा अथवा प्रयत्नः, वक्ष्यमाणः प्रयत्नः वा न भवति तस्य, नाम तस्य ज्ञानं भवति, वृक्षाणां ज्ञानम् अस्ति एतावत्, वृक्षाणां कृते तत्र इच्छा वा प्रयत्नः तस्मिन् एतावत् नास्ति. अतः अग्रे परिच्छेदं यदा पठामः तदा अवगच्छामः, अस्तु तस्मिन् अस्मिन् समये केवलं ज्ञानम् आसीत्, किन्तु अनन्तरं तत्र इच्छा अपि अभवत्, अतः तदा अग्रे गत्वा तस्मिन् समये ज्ञानमपि अस्ति इच्छा अपि अस्ति, किन्तु इदानीं केवलं ज्ञानमस्ति इच्छा नास्ति इति कृत्वा अग्रे तेन वयं साधयामः, अस्तु इच्छा भिन्ना अस्ति ज्ञानं भिन्नम् अस्ति इति.
अस्तु महोदय,
अतः अग्रिमपरिच्छेदस्य पठनेन स्पष्टं भवति इति मन्ये भगिनि.
अस्तु महोदय.
महोदय, परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव, परन्तु इतोपि अन्यः आत्मनिगुणः उत्पद्यते, स एव इच्छा. इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना, इदानीम् उद्याने उत्पन्ना, अतः अयं ज्ञानात् भिन्नः गुणः. अस्मिन् परिच्छेदे द्वितीयः गुणः इच्छा तस्य विवरणं दीयते. यदा प्रथमतया यदा ग्रामान्तं सः गतः तदा वृक्षान् पश्यति, सः पश्यति. यदा विहाय उद्यानं सः यदा गच्छति तदा पुनः वृक्षान् लताः च पश्यति. तदा तस्य मनसि उद्भवति इच्छा, इदं मम भवतु इति, तस्य मनसि इच्छा भवति तस्य तदेव तस्य फीलिङ्ग् इच्छायाः आकृतिः अस्ति इति मम भवतु इति शास्त्रे आकारवर्णनं कुर्वन्ति तदेव इच्छा
इच्छा नाम शास्त्रे तस्य इच्छायाः आकारवर्णनं स्वरूपस्य
वर्णयन्ति इदं मम भवतु भवतु इति तदेव इच्छा इति तस्य वर्णनं शास्त्रे अस्ति
शास्त्रे भवति
तदेव इच्छा ज्ञानात् भिन्नः गुणः
नाम इयं च इच्छा ग्रामगमनसमये तस्य आत्मनि न उत्पन्ना
नासीत्
तदा केवलं सः दृष्टवान् वृक्षाणां ज्ञानम् आसीत् किन्तु वृक्षः एषः वृक्षः मम भवतु इति तस्मिन् नासीत्
अवाक्षात्
अनेकान् वृक्षान् दृष्टवान् किन्तु अस्तु एते वृक्षाः मम भवन्तु इति तस्मिन् मनसि न आगतम्
इच्छा नास्ति
इच्छा न आसीत् तस्मिन् इदानीं
विहाराय
उद्याने उद्याने सः चिन्तयति अस्तु एतद् मम
भवतु
अतः इच्छा इदानीम् उत्पन्ना अस्ति इदानीम् उत्पन्ना इदानीम् इच्छा अस्ति किन्तु तस्मिन् समये एषः गुणः
केवलं
तस्मिन् समये अतः तत्र प्रथमतया तत्र ज्ञानं भवति तदनन्तरमेव इच्छा भवति इति अपि तत्र सोपानं दर्शितमस्ति खलु नाम यस्य ज्ञानं नास्ति तस्य कृते इच्छा न भवति खलु अतः तत्र ज्ञानं प्रथमतया भवेत् तदनन्तरम् इच्छा भवति अपि एषा इच्छा भिन्न भिन्नः गुणः अस्ति
भिन्नगुणः वर्तते
अपि आत्मनि एषः गुणः अपि वर्तते समीचीनं भगिनि धन्यवादः अस्तु अतः तत्र भिन्नः गुणः अस्ति अस्तु समीचीनं धनश्री भगिनी प्रश्नः
आम् महोदय अत्र इच्छायाः व्याख्या नाम इदं मम भवतु तावदेव अस्ति न्यायशास्त्रे व्यवहारे तु बहवः नाम अस्माकं किमपि द्रष्टुम् इच्छा अस्ति अस्माकं किमपि कार्यं तत् सर्वम् अत्र नास्ति
न यतोहि एतावत् तत्र न्यायशास्त्रे तत्र रीतिः नाम तत्र सर्वदा रीतिः कीदृशी अस्ति इत्युक्ते नाम प्रकृतविषयः नाम मूलविषयः यस् अस्माकं यदस्ति तस्य उपरि आधिक्येन वदन्ति यत् अग्रे भवति तस्य यावत् आवश्यकता अस्ति तावदेव वदन्ति नाम एतावत् तत्र अस्माकं कार्यं किम् अस्ति तत्र द्रव्याणां निरूपणं खलु आत्मनः लक्षणम् आत्मनः लक्षणं कृत्वा तदनन्तरं मनसः लक्षणं कृत्वा तदा किं भवति द्रव्याणां निरूपणं पूर्णं भवति सम्पूर्णं भवति तदा एव तदनन्तरमेव तत्र गुणानां विवरणं कुर्मः अतः एते सर्वाः गुणाः इति कृत्वा तेषाम् आवश्यकता यावत् आवश्यकता अस्ति तावत् वर्णनम् अत्र दीयते अग्रे गत्वा तत्र ज्ञानम् इति तत्र तस्य पुस्तके यदि भवती पश्यति चेत् तत्र ज्ञानम् इति केवलं तस्य एव तत्र अनेकानि पुटानि सन्ति पुस्तके यतोहि तत्र ज्ञानं प्रमात्मकं ज्ञानं भ्रमात्मकं ज्ञानं प्रत्यक्षम् अतः तत्र गुणानां वर्णनम् अग्रे भवति अस्तु अग्रे तत्र नीता भगिनी अग्रे
परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति वृक्षवाटकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति तत्र प्राथमिकं ज्ञानं तस्य भवति द्वितीया इच्छापि इतोपि तृतीयः गुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा धनार्थं सञ्चिकां याति सः गुणः न यात्रायाम् उत्पन्नः न अपि उद्याने तदा सः यदि उत्पत्तस्य त हस्तः सञ्चिकाम् अगमिष्यत् न
तावत्पर्यन्तं तावत्पर्यन्तं भगिनि
प्रथमतया तु अत्र वयं दृष्टवन्तः प्रथमतया तु ज्ञानम् उत्पद्यते इच्छा तत् सोपानानि सन्ति तत्र तत् अतः इच्छा इति भिन्नः गुणः अस्ति परन्तु यदा सः उद्याने विक्रणं भवति वा तस्य विक्रणं भवति वा इति सः पश्यति तत् सः जानति तत्र पुष्पगुल्मलतादीनां विक्रयः तत्र न भवति अतः तत्र वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोचनः अनन्तरं सः वृक्षवाटिकां गच्छति प्रथमतः तु ज्ञानम् उत्पद्यते अनन्तरम् इच्छा आगच्छति मनसि तत् अनन्तरम् अहं तेषां सम्पादनं करोमि इति इच्छया सः वृक्षवाटिकां गच्छति
इदानीम् अस्तु तत्र विक्रयः न भवति इति जानानः केवलम् इच्छति अतः तत्र एतावत् किमस्ति ज्ञानमस्ति इच्छा अस्ति खलु इच्छा अस्ति नाम केवलम् इच्छति नाम तत्र पुष्पः पुष्पं मम भवतु गुल्मः मम भवतु इति तत्र इच्छा अस्ति तस्य अपि तत्र जानानः इति तत्र कीदृशपदमस्ति तत्र
शत्रन्तपदं वा
न
तत्र
धातुः कः
ज्ञाधातुः
किन्तु ज्ञाधातुः तत्र तत्र लट्लकारे किमस्ति
जानाति
न न जानाति परस्मैपदी अस्ति
परस्मैपदीरूपम्
अस्ति
जानीते
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 जानीते अतः जानानः नाम जानन् जानन् इति अर्थे किन्तु जानानः तत्र शत्रन्तरूपं इति जानन् अथवा जानानः केवलम् इच्छति तत्र जानानः मुगागमः नास्ति अतः किन्तु शत्र शानजन्तरूपमेव अस्तु तत्र अतः तत्र सः किं करोति केवलम् इच्छति अपि वृक्षवाटिकं गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति खलु इदानीं सः गच्छति तत्र क्रिया अस्ति खलु इदानीं सः गच्छति अस्तु इदानीं अग्रे
तत्र प्राथमिकं ज्ञानं तस्य भवति द्वितीया इच्छा अपि इतोपि तृतीयः गुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा धनार्थं सञ्चिकां याति
नाम किम् एतावत् किमस्ति
सः क्रेतुम् इच्छति अतः तस्य धनार्थं सञ्चिकां याति तत्र आत्मनि उत्पद्यते तृतीयगुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा धनार्थं सञ्चिकां याति हस्तः चलित्वा किमपि कार्यं कृत्वा वा
नाम यावत् प्रथमतया ज्ञानम् आसीत् खलु तस्य तदनन्तरम् इच्छा अभवत् खलु एतद् मम भवतु इति इच्छा अभवत् अपि तत्र अत्र विक्रयणं न भवति इति कृत्वा सः तत्र वृक्षवाटिकां गच्छति इदानीं यदि सः वृक्षवाटिकां गच्छति तदा सः किं करोति क्रीणाति खलु तर्हि तत्र तस्मिन् मनसि किमपि अस्ति येन सः विक्रयणं करोति, नाम तत्र नूतनज्ञानमस्ति, नूतनगुणः अस्ति तस्मिन्, ज्ञानं नास्ति क्षमतां, नूतनः गुणः तस्य आत्मनि अस्ति, येन गुणेन तत्र हस्तः तेन प्रभावेन हस्तः चलित्वा कुत्र गच्छति हस्तः? सञ्चिकां गच्छति,
सञ्चिकां गच्छति
धनार्थं, धनं धातुं तत्र धनस्य धनाय तत्र धनार्थं सञ्चिकां याति। हा
तत्र एषः गुणः इत्युक्ते
अग्रे पठतु तत्र। हा
ओके, सः गुणः न यात्रायाम् उत्पन्नः न अपि उद्याने।
इदानीं तत्र तृतीयः गुणः इति तत्र सः गुणः तत्र यात्रायामपि नासीत् अपि उद्याने अपि नासीत् किन्तु वृक्षवाटिकाम् अस्ति इति वदति किमर्थम्?
तदा सः यदि उदपत्स्यत हस्तः सञ्चिकाम् अगमिष्यत्
इति अस्ति तत्र। हा इति तत्र सः यदि उदपत्स्यत हस्तः सञ्चिकाम् अगमिष्यत् तत्र
उदपत्स्यतः
अगमिष्यत् इत्युक्ते किम्?
अगमिष्यत् इति लृङ्
उत्तमम् उत्तमं, हा तथैव अस्ति, नाम उदपत्स्यत
यदि वा तदि इफ् इफ् हि अगर गया होता इत्युक्ते एवं।
हा यदि उदपत्स्यत नाम यदि उत्पद्यते तस्मिन् समये यदि उत्पत्तिः अभवत् तदा हस्तः सञ्चिकाम् अगच्छत् किन्तु तद् न अभवत् तत्र तस्मिन् समये न तस्य उत्पत्तिः न अभवत् यतोहि तस्य उत्पत्तिः तस्मिन् समये आसीत् चेत् हस्तः सञ्चिकाम् अगच्छत् किन्तु तद् न अभवत् अतः
तत् न अभवत्
तस्मिन् समये एषः गुणः नासीत् येन प्रभावेन हस्तः सञ्चिकां प्रति गच्छति सः गुणः तस्मिन् समये नासीत् यतोहि तस्मिन् समये आसीत् चेत् हस्तः सञ्चिकां प्रति तस्मिन् समये एव गच्छति किन्तु तद् न करोत् अतः न गतः हस्तः इति अस्ति। समीचीनं भगिनि, हा अग्रे तत्र अन्य कोऽपि पठेत् समीचीनं, धन्यवादः भगिनि। अस्तु अग्रे प्रेमरथ भगिनि अग्रे।
आं महोदय, श्रूयते वा?
हा श्रूयते भगिनि।
न गतः तेन विद्मः आदिमयोः कलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः। एतत् पूर्वं
एकवारं सम्पूर्णं पठित्वा वदतु भगिनि तत्र वक्ष्यामः इति पर्यन्तं।
स एव प्रयत्नः कृतिः प्रवृत्ति यत्न भावना इत्यादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः तस्मिन् सति हस्तपादादौ क्रिया भवति असति क्रिया न भवति। जाग्रदवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति सर्वत्र च इयं कृतिः अपेक्षिता। उत्क्षेपणादौ एतेषां त्रयाणाम् आवश्यकत्वं वक्ष्यामः। अत्र एतत् पूर्वं यदि ज्ञानम् इच्छा इति स्तरे एतत् अभवत् प्रथमतः ज्ञानं तदनन्तरम् इच्छा भवति एतत् स्थलयोः आदिमयोः स्थलयोः नाम ज्ञान इच्छास्थलयोः अविद्यमानगुणः तत्र यत् गुण विद्यमान तस्मिन् तस्मिन् समये न एतत् गुणः नास्ति, प्रयत्नः इति गुणः नास्ति. अत्र यद् सञ्चिकायां हस्तः चलित्वा धनार्थं सञ्चिकां याति इति एतद् क्रिया अस्ति, प्रयत्नः अस्ति. एतत् पूर्वं न आसीत् ज्ञान इच्छा स्थलयोः. एतदेव महोदय.
नाम भगिनी तत्र प्रयत्नः अत्र नामकरणं दत्तमस्ति, नूतनगुणस्य नाम प्रयत्नः, कृतिः अथवा प्रवृत्तिः, यत्नः, भावना इत्यादि खलु. इदानीं तत्र प्रयत्नः अथवा प्रवृत्तिः नाम पूर्वं वयं दृष्टवन्तः सः यः यस्य विवरणं तत्र एतावत् कृतं नाम सः अन्यत् ग्रामान्तरं गन्तुम् इच्छति खलु सः. किन्तु केवलम् इच्छति वा, अहम् अन्यत् ग्रामम् अन्यं ग्रामं गच्छामि इति इच्छति वा, अथवा केवलम् इच्छा अस्ति वा, अथवा सः साक्षात् गच्छन् अस्ति वा? गच्छन् अस्ति खलु. हा, गन्तुं प्रवृत्तः नाम गन्तुं प्रयत्नं कुर्वन् अस्ति खलु सः. यानेन सः गच्छन् अस्ति, केवलम् इच्छा अस्ति वा तस्य? इच्छा अस्ति चेत् सः गृहे एव तिष्ठति खलु. नाम तेन नूतनगुणः तस्मिन् आत्मनि तस्य उत्पत्तिः अभवत्, येन सः केवलम् अस्तु मम इच्छा अस्ति इति तावत् पर्याप्तं नासीत्, सः साक्षात् तत्र आसन्दात् तत्र सः आसन्दे एव न तिष्ठवान्, किन्तु साक्षात् तत्र यानं स्वीकृत्य सः ग्रामान्तरं गन्तुम् आरब्धवान् खलु. अतः ये क्रियाः सर्वे तत्र अभवन्, याः क्रियाः सर्वाः अभवन्, ताः क्रियाः केन कारणेन अभवन्? केवलम् इच्छा इति कारणेन न वा? इच्छा अनन्तरं प्रयत्नः इति अस्ति, प्रयत्नः इति. हा, अतः एव तत्र प्रयत्नः इति सः एव तत्र अत्र कृतिः, प्रवृत्तिः, यत्नः, प्रयत्नः, एतदेव नूतनगुणः आत्मनि.
सः एव प्रयत्नः, कृति, प्रवृत्तिः, यत्नः, भावना इत्यादि शब्दैः व्यवक्ष्यमाणः आत्मविशेषगुणः. कृतिः प्रवृत्ति, कृति नाम किमपि कार्यम्, तदेव न प्रवृत्ति, प्रवृत्तमान क्रियावान्
भवति. एतत् सर्वम् एतैः शब्दैः तत्र प्रयत्नः इति तस्य सङ्केतः भवति. अपि व्यवह्रियमाणः नाम व्यवहारः, शब्दः नाम व्यवहारः नाम एतैः शब्दैः ज्ञानम् अथवा किमपि भवति तत्र. अत्र तस्य प्रयत्नस्य ज्ञानम् अस्माकं मनसि भवति इति कृत्वा प्रयत्नः एव.
एतदेव एतद् कृति, प्रवृत्ति, यत्न, भावना इत्यादि शब्दैः व्यवह्रियमाणः एतत् सर्वम् आत्मविशेषगुणः.
प्रयत्नः इति नूतन गुणः. एषः गुणः पूर्वं तत्र ज्ञाने तत्र नासीत्, उद्याने नासीत्, केवलं वृक्षवाटिकाम् अस्ति.
अस्ति वृक्षवाटिकायां यः प्रविष्टः तस्मिन् समये अस्ति.
तस्मिन् सतिः,
तस्मिन् सतिः हस्तपादादौ क्रिया भवति. असति क्रिया न भवति क्रियावान् भवति इति
कारणेन एव क्रियाः भवन्ति हस्तस्य क्रिया वा पादस्य क्रिया वा भवति
जागृतवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति जागृतवस्थायां
नाम जागृतवस्थायां नाम अस्माकम् आनुभविकम् अस्ति नाम
क्षणम्
अस्माकं शरीरे तत्र अनेकाः क्रियाः भवन्ति खलु
अनेकाः क्रियाः भवन्ति नित्य
अतः तत्र अतः तत्र जागृत अवस्थायां नाम जागृत् स्वप्न सुषुप्ति इति तत्र जागृत अवस्थायां
निद्रावस्थायां नास्ति इति निद्रावस्थायां
निद्रावस्थायाम् इति तस्मिन् विषये न उक्तं किन्तु जागृत अवस्थायां हा न उक्तं किन्तु जागृत अवस्थायां तु प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति अस्माकं नेत्रस्य उन्मीलनम् एतत् सर्वं भवति खलु अतः तत्र हस्तस्य हस्तपादयोः तत्र क्रियाः भवन्ति अतः तत्र सर्वत्र च इयं कृतिः अपेक्षिता नाम सर्वत्र प्रयत्नः अतः तत्र प्रतिक्षणम् अस्माकम् आत्मनि प्रयत्नः वर्तते कमपि प्रयत्नः वर्तते तादृशगुणः प्रत्येकक्षणं भिन्नभिन्न इच्छाः भवन्ति भिन्नभिन्नप्रयत्नाः भवन्ति किन्तु प्रयत्नः सर्वदा जागृतावस्थायां भवति एव
उत्क्षेपणादौ एतेषां त्रयाणाम् आवश्यकत्वं वक्ष्यामः
तत्र उत्क्षेपणं तत्र कर्म इति कर्मणः तत्र उत्क्षेपणम् आकुञ्चनं प्रसारणम्
आकुञ्चनं प्रसारणम् एतत्
गमनम्
अस्ति
हा तत्र तस्मिन् तेषु अपि तत्र त्रयाणां नाम ज्ञानम् इच्छा क्रिया इति तेषाम् आवश्यकत्वं ते अपि
तेषां त्रयाणामपि एतत् विषयम् आवश्यकं
कर्मणः विषये तत्र क्रिया तत्र उत्क्षेपणम् इत्यादि क्रियाः याः सन्ति तासां विषये अपि तत्र ज्ञानम् इच्छा प्रयत्नः इति तस्य आवश्यकता अस्ति इति अग्रे वक्ष्यामः तत्तु बहु अनन्तरं भवति त्रिशताधिक तत्र पुटमस्ति अतः तत्र इदानीं न भवति अग्रे अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे धनश्री भगिनी अग्रे धनश्री भगिनी अस्ति वा
क्षम्यताम् क्रिया उत्पन्न चेष्टा स्पन्दनयोः भेदकथनं
स्पन्दयोः
चेष्टा स्पन्दयोः भेदकथनम् अत्र अपरो अयं विशेषः निराश्रितः हस्तः गगने उन्नितः चेत् तत्र ईषत् कम्पं वयम् अनुभवामः तत्र न किञ्चित् ज्ञातं न किञ्चित् अभिलाषितं नापि प्रयत्नं तथापि हस्ते कम्पः दृश्यते एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना विलक्षणा तत्र मालती लता ज्ञाता अभिलाषिता तां क्रेतुं प्रयत्नं ततः हस्ते क्रिया उत्पन्ना नाम अत्र यद्वयम् अस्माभिः दृष्टं पूर्वं प्रयत्नः अस्ति प्रयत्नात् पूर्वम् इच्छा उत्पद्यते तस्याः पूर्वं ज्ञानम् भवति परन्तु अत्र तादृशं श्रृङ्खला न दृश्यते क्रमः न दृश्यते अत्र निराश्रितः हस्तः गगने उन्नीतः चेत् तत्र ईषत्कम्पं वयम् अनुभवामः. तत्र न किञ्चित् ज्ञातं, न किञ्चित् अभिलाषितं, नापि प्रयत्तम्. तदेव तत्र यत् कम्पं वयम् अनुभवामः, तस्मात् पूर्वम् अस्माकं मनसि किमपि ज्ञानं न भवति, मनसि आत्मनि कोऽपि इच्छा अपि न भवति यद् अहं कम्पनं कर्तुम् इच्छामि मम हस्तेन तादृशं, तर्हि अपि कम्पनम् उत्पद्यते, तथापि हस्ते कम्पः दृश्यते. एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना, नाम यत् पूर्वस्मिन् उदाहरणे अस्माभिः दृष्टं, पुष्पवाटिकायाम् अथवा सञ्चिकायां निधानाय हस्ते या क्रिया अस्माभिः दृष्टा, सा क्रिया अनन्तरम् अत्र कम्पनस्य क्रिया, अनयोर्मध्ये भेदः अस्ति, अतः तत्र विलक्षणं किञ्चित् भेदः अस्ति, तत्र भिन्नः
नाम एषा क्रिया विलक्षणा अस्ति,
विलक्षणा
भिन्ना अस्ति, भिन्ना अस्ति.
तत्र मालती, लता, ज्ञाता, अभिलषिता, तां क्रेतुं प्रयत्तं, ततः हस्ते क्रिया उत्पन्ना. मालती, लता,
नाम तत्र पुष्पेण तत्र मालती लता, तत्र मालती लता, मालती इति विशेषणं, मालती लता. प्रथमतया तस्याः ज्ञानम् अभवत्, तदनन्तरं तस्याः इच्छा अभवत्,
तदनन्तरं
प्रयत्नं, नाम प्रयत्नं कृतं, ततः एव हस्ते क्रिया उत्पन्ना. किन्तु तादृशी क्रिया कम्पनक्रिया तादृशी नास्ति. अतः तत्र चेष्टा अपि स्पन्द इति तयोः मध्ये वैलक्षणम् अस्ति इति भेदः अस्ति इति अग्रे भवति.
अत्र नाम या क्रिया अस्माभिः पूर्वं दृष्टा, सा क्रिया नाम चेष्टा एव,
हा इति सत्यं भगिनि. तत्र यत्र चेष्टा नास्ति तत्र स्पन्दः इति कथनं भवति अग्रे.
नाम चेष्टा वा इच्छा इच्छायाः अनन्तरं या क्रिया उत्पन्ना भवति, सा
क्रिया चेष्टा भवति.
अस्तु, स्पन्द नाम यस्य यस्याः क्रियायाः पूर्वं कापि इच्छा नास्ति सः स्पन्दः.
हा नाम एषः क्रमः यत्र न वर्तते पूर्वं तत्र स्पन्दः इति वदामः. अस्तु, समीचीनं. तर्हि तत्र नृसिंहमहोदय अद्य भवान् न पठितवान्, क्षम्यताम्, अग्रिमे वर्गे भवान् एव आरम्भं करोतु, क्षम्यतां महोदय.
अस्तु महोदय,
अस्तु अस्तु, तर्हि बहु समीचीनमस्ति, बहु किमपि अद्य पठितवन्तः. अग्रिमवर्गे तर्हि तत्र चेष्टास्पन्दयोः विवरणं पठित्वा अग्रे सरामः. अस्तु, तर्हि धन्यवादः, नमस्कारः,
धन्यवादः, नमस्कारः.